नमस्कारः। किरातार्जुनीयस्य एकादशं श्लोकं पठामः। असक्तमाराधयतो यथा यथं विभज्य भक्त्या समपक्षपातया गुणानुरागादिवसख्यं जीवान् न बाधते त्रिगुणः परस्परम्। असक्तम् आराधयतः यथा यथं विभज्य भक्त्या समपक्षपातया गुणानुरागातीव सख्यं यीवान् न बाधते अस्य त्रिगणः परस्परम् इति श्लोकस्य पदविभागः। त्रिगणः अस्य त्रिगणः परस्परं न बाधते इति प्रमुखं वाक्यम्। अस्य दुर्योधनस्य त्रिगणः, त्रिगणः इति कश्चित् व्याख्याता प्राक्तनश्लोकात् भृत्य सुहृद् बन्धुः इति विषयत्रयमेव त्रिगणः इति परिगणय्य व्याख्यानं दत्तवान् अस्ति। एषः त्रिगणः नाम भृत्यवर्गः, बन्धुवर्गः, सुहृद्वर्गः। एषः त्रिगणः परस्परं न बाधते, अनुकूलाः आसन् एते सर्वे अपि इति व्याख्यां दत्तवान् अस्ति। किन्तु एषा व्याख्या तु तावत् प्रसिद्धा व्याख्या न, मल्लिनाथस्य व्याख्या तथा न। एष अन्ये व्याख्यातारः एतादृशं व्याख्यानं न दत्तवन्तः, अतः वयं तथा न स्वीकुर्मः। अत्र त्रिगणः इति बहुभिः व्याख्यातमस्ति। एवं धर्म अर्थ कामः इति चतुर्षु पुरुषार्थेषु विद्यमानः त्रयः विषयाः धर्म अर्थ काम। एषः त्रिगणः धर्मार्थकामानां गणः परस्परं न बाधते इति, परस्परं पीडां न कुर्वन्ति करोति। धर्मार्थकामाः परस्परं पीडां न कुर्वन्ति इति सामान्य अर्थः। कारणं यथा धर्माचरणे प्राधान्यं दीयते तथा कदाचित् अर्थसम्पादनस्य न्यूनता भवति। पाशन् कामः इति अर्थ पाशन् इति अर्थं स्वीकुर्मः, तस्य इच्छायाः अपि न्यूनता किञ्चित् भवति। एवमेव यदा यदा अर्थसम्पादने प्राधान्यं दद्मः तदा धर्मविषये किञ्चित् न्यूनता तु भवति एव, एवमेव। किन्तु तथा न, तत्र धार्मिकः भवेत्, धर्ममार्गेण अर्थसम्पादनं भवेत्, धार्मिकम् अर्थसम्पादनं भवेत्, धार्मिकः कामः अपि अनुभूयते इति, सर्वत्र धर्माचरणं भवेत्। धार्मिकः पुनः धर्म आचरणसन्दर्भे एव अर्थसम्पादनम्, अर्थसम्पादनसमये एव धार्मिकः काम इच्छाप्राप्तिः अपि इति। एवं धर्म अर्थः कामः एषः एते त्रयः अपि परस्परं न बाधन्ते अस्य राज्ये इति। कथं परस्परं बाधां विना, पीडां विना त्रिगणः आसीत् इत्युक्ते, यथा यथं समपक्षपातया भक्त्या विभज्य। यथा यथं नाम यथा योग्यं, यथोचितं, यथा करणीयं तथा इति, नाम धर्मस्य स्वरूपम् अनुल्लङ्घ्य, अर्थस्य स्वरूपं न उल्लङ्घ्य, एवमेव कामस्य स्वरूपं न उल्लङ्घ्य, यथा यथं समपक्षपातया भक्त्या विभज्य। असक्तम् आराधयतः समपक्षपातया, समपक्षपातः भवेत्। समपक्षपातः आसीत् तस्य, समपक्षपातस्य भावं समपक्षपातः नाम पक्षपातं विना यदा धर्मस्य प्राधान्यं क्रियते तदा धर्मे एव पक्षपातः न आसीत्। समपक्षपातया विभज्य आराधयतः इति शत्रुप्रत्ययरूपं, षष्ठीविभक्तिः एकवचनं, अस्य इति पद विशेषणत्वेन उपयुज्यते अत्र। आराधयतः नाम पूजयतः, नाम पूजां साक्षात् कृतवान् इति अर्थः नास्ति। श्रद्धया यत् क्रियते तदेव आराधना इति उच्यते। यथा श्रद्धया भगवतः सेवा क्रियते तथा अत्र श्रद्धया सह धर्मार्थकामानां कामान् विभज्य पूजितवान् इति तादृशस्य दुर्योधनस्य अस्य दुर्योधनस्य इति भक्त्या आराधयतः भक्ति इत्युक्ते यत्र तन्मयत्वं भवति तदेव भक्तिः इति भवति स्नेहपूर्वकम् अत्र भक्ति इति पदं कारणार्थं प्रयुज्यते हेतुत्वात् प्रयुज्यते तृतीयाविभक्तिप्रयोगः भक्त्या आराधयतः स्नेहपूर्वकं भक्तिपूर्वकं श्रद्धापूर्वकम् एतेषां धर्मार्थकामानां प्रयोगं करोति धर्मार्थकामान् सः रक्षति समपक्षपातया भक्त्या च समपक्षपातया नाम पक्षे पातः पक्षपातः अत्र कस्यचित् प्राधान्यं न दत्तं केवलं धर्मस्यैव प्राधान्यं केवलम् अर्थस्य एव प्राधान्यं कामस्यैव प्राधान्यम् इति भावः न आसीत् समपक्षभावना आसीत् सर्वेषां त्रयाणामपि समानभावेन आराधितवान् इति समपक्षपातया भक्त्या च विभज्य भक्त्या विभज्य विभागं कृत्वा समपक्षपातया एतेषां त्रयाणामपि विभागं कृत्वा आराधयतः इतोपि कथम् आराधितवान् सः इत्युक्ते असक्तं सक्तः इत्युक्ते इन्वाल्व्ड् आसक्तः इति अर्थः असक्तम् इत्युक्ते आसक्तिं विना स्वयं तेषाम् उपरि आसक्तिं विना वितौट् इन्वाल्वमेण्ट् इति अर्थः आसक्तिं विना सः पूजां कृतवान् मनुष्यः चेत् धर्म आचरणं कुर्यात् अर्थसम्पादनमपि कुर्यात् कामस्यपि एतत् कुर्यात् इति कर्तव्यताभावेन एव सः कार्यं कृतवान् अतः किन्तु आसक्त्या तद् कार्यं न कृतवान् इति अत एव असक्तम् आराधित एतत् मम कर्तव्यता धर्मार्थकामानां सम्पादनं तु मम कर्तव्यता इति मनसि निधाय एव सः कार्यं कृतवान् तादृशस्य दुर्योधनस्य किन्तु तत्र तस्य अनुरागः न आसीत् एतेषु विषयेषु तस्य लौकिकविषयेषु तस्य अनुरागः अटाच्मेण्ट् न आसीत् अतः अत एव असक्तम् आराधयतः इति पदस्य प्रयोगः एवं यथायथं यथास्वरूपं भक्त्या समपक्षपातया च विभज्य भक्तिपूर्वकं समानपक्षपातपूर्वकं विभज्य असक्तम् आसक्तिं विना आराधयतः पूजयतः तस्य दुर्योधनस्य त्रिगणः धर्मार्थकामानां गणः परस्परं न बाधते कथमिव गुणानुरागात् सख्यम् ईवानिव दुर्योधने विद्यमानाः सद्गुणाः तेषु अनुरागः अस्ति एतस्य त्रिगणस्य धर्मार्थकामानां धर्मार्थकामाः त्रयः अपि दुर्योधनस्य गुणैः आकृष्टाः सन्ति अतः तस्य गुण अनुरागात् अनुरागः नाम अटाच्मेण्ट् आसक्तः अनुरक्तः इति तस्य गुणेषु अनुरागात् तस्मात् कारणात् सख्यम् ईवानिव सख्यं सख्यं नाम तस्य दुर्योधनस्य सख्यं प्राप्तुम् उद्युक्ताः इव सख्यम् ईवान् इव सख्यं प्राप्तुम् इष्टवान् इव अयं त्रिगणः परस्परं न बाधते इति ईवान् इति पदस्य परिचयः अस्ति वा न जाने इन् गतौ इति धातोः क्वसुप्रत्ययेन ई इवस् इति प्रातिपदिकं सिध्यति तस्मात् प्रथमाविभक्ति एकवचनं पुल्लिङ्गे ई इवान् इति उपे इवान् इति रघुवंशस्य प्रथमश्लोके दशान्तम् उपे इवान् इति पदं पठितवन्तः स्युः स्मरन्त्यपि स्मरेयुः अस्तु एवं गुण अनुरागात् इव दुर्योधने विद्यमानाः सद्गुणाः तैः आकृष्टाः इव तेषु अनुरक्तः इव अत एव तस्य सख्यं प्राप्तुम् इष्टवान् अस्ति एषः त्रिगणः। त्रिगणः इति पदम् अत्र यद्यपि त्रयाणां समूहत्वेन एकवचनम् इति स्वीकृतमस्ति, त्रिगणः परस्परं न बाधते। दुर्योधनः अपि एतेषु त्रिषु विषयेषु धर्मार्थकामेषु समपक्षपातभावना समपक्षपातं दर्शितवान्, भक्त्या आराधितवान्, असक्तमपि आराधितवान्। एतान् त्रीणपि असक्तं नाम आसक्तिं विना आराधितवान् इति कारणेन एतस्य सद्गुणैः अनुरक्तः एषः त्रिगणः, धर्मार्थकामः इति त्रिगणः, तस्य तस्य गुणेन आकृष्टः, तस्य सख्यं प्राप्तुम् इष्टवान् इव परस्परम् अबाधमानः वर्तते एषः त्रिगणः इति अस्य श्लोकस्य सामान्यः अर्थः। अस्य श्लोकस्य भावार्थः अस्ति, पठामः। दुर्योधनः धर्मार्थकामान् यथाभागं विभज्य समान आदरेण अनासक्तं सेवते, समान आदरेण समपक्षपातया इति, समान आदरं समानभक्तिं प्रदर्शितवान् त्रिषु अपि विषयेषु इति। अत एव ते गुणाः दुर्योधनस्य गुणैः आदरेण मैत्रीम् उपगताः इव, अतः एव एते त्रयः अपि दुर्योधनस्य गुणैः आदरेण मैत्रीम् उपगताः, सख्यं प्राप्ताः इव परस्परम् अबाधमानाः वर्तन्ते, परस्परं बाधां विना आसन्। अग्रे द्वादशं श्लोकं पठामः। निरत्ययं सामनदानवर्जितं न भूरिदानं विरहय्य सक्रियां प्रवर्तते तस्य विशेषशालिनी शालिनी गुणानुरोधेन विना न सत्क्रियाम्। निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियां प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया। द्वादश, त्रयोदश, चतुर्दश, त्रिषु श्लोकेषु सामदानभेददण्ड इति उपायचतुष्टयस्य प्रयोगं दुर्योधनं कथं कृतवान् इति उच्यते, त्रिषु श्लोकेषु उच्यते। पूर्वं धर्मार्थकामानां विषये उक्तम्, इदानीं सामधानभेददण्ड इति उपायचतुष्टयस्य चतुष्टयस्य विषये उच्यते। अस्मिन् श्लोके, द्वादशे श्लोके तु सामधानयोः विषये उच्यते। साम इत्युक्ते अनुनयः इति, अनुनयः नाम भाषणद्वारा कस्यचित् समाधानं कर्तुम् उद्यमः एव सामप्रयोगः इति उच्यते। भाषणसामर्थ्येन, परस्परं भाषणसामर्थ्येन कस्यचित् अनुनयः यत्र क्रियते स एव साम उपायः। साम उपायेन कस्यचित् सान्त्वनं कृत्वा तम् अस्माकं मार्गं प्रति आनयनमेव साम उपायः भवति। एतत् एकैकस्मिन् विषये भिन्नरीत्या साम उपायस्य प्रयोगः क्रियते। गुरुशिष्ययोः नाम सामप्रयोगः भिन्नः भवति, राजा साम राज्ञः सामप्रयोगः भिन्नः भवति, माताशिशोः सामप्रयोगः भिन्नः भवति। तस्य दुर्योधनस्य सामः दानवर्जितं न भवति। साम इति नपुंसकलिङ्गपदमस्ति, सामानि इति अत एव दानवर्जितम् इति नपुंसकलिङ्गप्रयोगः तत्रापि विशेषत्वेन। सामदानवर्जितं न भवति नाम यदा यदा सः साम उपायस्य प्रयोगं कर्तुम् उद्युक्तः भवति तदा दानरहितं साम न करोति दुर्योधनः, सर्वदा दानसहितम् एव करोति। दानवर्जितं नाम विना दानं न करोति। दानम् इत्युक्ते धनरूपेण एव क्रियमाणं सर्वं दानम् इति न उच्यते, तद् वस्तुरूपेण अपि भवितुम् अर्हति, भिन्नभिन्नरीत्या भवितुम् अर्हति। एवं सर्वदा तस्य साम उपायः तु दानसहितमेव भवति, दानवर्जितं दानरहितं न भवति। पुनः भूरिदानं तु सत्क्रियां विरहय्य न प्रवर्तते। भूरिदानं, भूरि इति पदस्य बहुप्रकारं दानम् इति स्वीकरणीयम्। अत्यधिकं दानम् इति अपेक्षया बहुप्रकारेण यत् दानं तेन क्रियते तत् दानं वस्तुरूपेण वा धनरूपेण वा भूमिप्रदानरूपेण वा धनधान्यरूपेण वा केनापि प्रकारेण दानं भवितुम् अर्हति। अतः भूरिदानं सक्रियां विरहय्य न, सक्रियां विना दानं न करोति। यथा यदा दानं क्रियते तदा केचन उपचाराः अपि कर्तव्याः सन्ति, अनादरभावेन दानं न करणीयम् इति अस्ति, अस्माकं शास्त्रे अपि अस्ति। अतः सत्क्रियां विरहय्य सत्क्रियाभावनया एव सः दानमपि करोति। नाम सादरं दानं करोति, आदरम् अपि ददाति। यदा दानं करोति तदा आदरं विना अनादरभावेन दानं न करोति स्म। अतः सत्क्रियां विरहय्य, विरहय्य विरह्य इत्युक्ते परित्यज्य इति, सत्क्रियां विना सत्क्रियां परित्यज्य सः दानं न करोति, तस्य दानं न प्रवर्तते। पुनः तस्य विशेषशालिनी सत्क्रिया गुण अनुरोधेन विना न प्रवर्तते। तस्य सत्क्रिया प्रथमं दानवर्जितं साम दानवर्जितं न भवति, नाम साम सर्वदा दानसहितमेव भवति। तद्दानमपि सत्क्रियापूर्वकं बहुमानपूर्वकमेव भवति, बहुमानयुक्तं दानमेव करोति, आदरभावेन दानं करोति इति। सा सत्क्रिया कीदृशी आसीत् इत्युक्ते विशेषशालिनी सत्क्रिया, अतिशोभावाहिनी सत्क्रिया, अतिशययोगिनी सत्क्रिया आसीत्। तादृशी सत्क्रिया, तस्य सत्क्रिया अनुरो दुर्योधनस्य सत्क्रिया गुण अनुरोधेन विना न, गुण अनुरोधः यः दानं स्वीकरोति तस्य अपि गुण अनुरोधः भवेत्। अर्थात् यः दानं स्वीकरोति सः सद्गुणसम्पन्नः भवेत्, कन्फर्मिङ्ग् वित् गुड् क्वालिटीस् इति गुण अनुरोधः। यः दानं स्वीकरोति तस्मिन्नपि उत्तमाः गुणाः भवितव्याः। अर्थात् दुर्योधनः, दुर्योधनेन क्रियमाणा सत्क्रिया गुण अनुरोधेन योग्यं योग्याय पात्राय एव सः सत्क्रियापूर्वकं दानपूर्वकं साम करोति। यः योग्यः, योग्यं पात्रमस्ति, यः योग्यः अस्ति, यस्मिन् उत्तमाः गुणाः सन्ति तस्मै एव सः सत्क्रियामपि करोति इति, सत्क्रियामपि ददाति, सत्क्रियापूर्वकं दानं करोति इति। अतः गुण अनुरोधेन विना, गुण अनुरागेन विना तस्य सत्क्रिया न प्रवर्तते इति। यम साम दानवर्जितं न भवति, दानं सत्क्रियावर्जितं न भवति, सत्क्रिया अपि गुण अनुरोधेन विना उत्तमगुणान् विना तस्य सत्क्रिया न भवति। अतः यः दान स्वीकर्ता अपि उत्तमगुणसम्पन्नः भवेत्। सामदान इति उपायद्वयमपि एकस्मिन्नेव श्लोके भारविः दत्तवान् इत्यस्य अर्थः एवं स्यात्। सामदान इति उपायद्वयमपि समानसमये प्रयुज्यते चेत् कार्यसिद्धिः चु ध्रुवं भवति इति कारणेनैव दुर्योधनस्य सामर्थ्यम् अत्र ज्ञायते। सामदान इति उपाय उभयमपि उपायं सः समानसमये प्रयुक्तवान् इति कारणेन तस्य कार्यस्य सफलता सफलता जायते इति कारणात् एव इति भारविः सामदान इति विषयद्वयमपि समानश्लोके प्रयुक्तवान् अस्ति। किन्तु सामदानभेदविषये एकः श्लोकः, दण्डविषये अपरः श्लोकः इति अन्य उपायद्वयस्य पृथक् श्लोकं कृतवान् अस्ति भारविः। किन्तु एतयोः सामदानयोः तु समानश्लोकः, एकः एव श्लोकः द्वयोः, कारणम् एतयोः प्रयोगः समानसमये क्रियते चेत् यत्र सामप्रयोगं बहुभिः क्रियते, समानसमये दानमपि क्रियते चेत् कार्यस्य सिद्धिः तु निश्चयेन भवति इति. तस्य दुर्योधनस्य निरत्ययं, निरत्ययम् इत्युक्ते निर्बाधं, निरन्तरं निरन्तरं सामदानवर्जितं न प्रवर्तते. तस्य साम उपायः दानं विना न प्रवर्तते. भूरिदानम् अपि, तस्य बहुप्रकारं दानम् अपि सत्क्रियां विरहय्य न प्रवर्तते. न प्रवर्तते इति सर्वत्र अन्वेति, विरहय्य न प्रवर्तते. सत्क्रियां विना, बहुमानभावं विना, आदरभावं विना तस्य दानमपि न प्रवर्तते. विशेषशालिनी सत्क्रिया, तत्र अतिशययोगिनी सत्क्रिया नाम अति उत्तमतया तेन क्रियमाणा सत्क्रिया गुण अनुरोधेन विना न प्रवर्तते. स्वीकर्तुः गुण अनुरोधेन विना, स्वीकर्तुः सद्गुणैः विना न भवति तस्य सत्क्रिया अपि. यः दानं स्वीकरोति तस्य अपि उत्तमाः गुणाः भवेयुः इति सामदानस्य प्रयोगं समानसमये कृत्वा जनान् आत्मानं प्रति आकर्षुं प्रयत्तते स्म दुर्योधनः इति आशयः अस्य श्लोकस्य. भावार्थः एवमस्ति, दुर्योधनः धनादिकं ददत् पूजाः सर्वाः सामवचनैः वशीकरोति. धनादिकं दत्त्वा सर्वाः अपि प्रजाः सामवचनैः, सान्त्वनैः वचनैः, अनुनेयैः वचनैः वशीकरोति. जनानां गुणान् अनुसृत्य तान् यथार्हं सत्करोति. तत्तद्गुणान् अनुसृत्य यथा योग्यं तेषां सत्कारमपि करोति. एवं प्रजा अभिमानं सम्पाद्य सर्वकार्याणि अचिरेणेव निर्विघ्नं सः साधयति. एवं सामदानप्रयोगेन सः प्रजानाम् अभिमानं सम्पाद्य सर्वकार्याणि, स्वकार्याणि अचिरेणेव बहुशीघ्रमेव सः निर्विघ्नं बाधां विना सम्पादयितुं साधयितुं सः समर्थः अस्ति दुर्योधनः. त्रयोदशं श्लोकं पठामः. वसूनि वाञ्छन् सवशीनमन्युना स्वधर्म इत्येव निवृत्तकारणः गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम्. वसूनि वाञ्छन् न वशी न मन्युना स्वधर्मः इति एव निवृत्तकारणः गुरूपदिष्टेन रिपौ सुते अपि वा निहन्ति दण्डेन सह धर्मविप्लवम्. सः दुर्योधनः वशी सः वस्तूनि वाञ्छन् अस्य अन्वयः, श्लोकस्य अन्वयः एवं भवति. वशी सः वसूनि वाञ्छन् न मन्युना न निवृत्तकारणः स्वधर्मः इति एव गुरूपदिष्टेन दण्डेन रिपौ वा सुते अपि धर्मविप्लवं निहन्ति. सः दुर्योधनः गुरूपदिष्टेन दण्डेन धर्मविप्लवं निहन्ति. सः स्वेच्छया न करोति इति ज्ञायते. गुरूपदिष्टेन दण्डेन, यः दण्डमार्गः गुरुणा उपदिष्टः वर्तते तेन दण्डमार्गेण, तया दण्डप्रीत्या सः धर्मविप्लवं निहन्ति. धर्मात् विप्लवं नाम व्यतिक्रमः, मीर्रदु इति वदामः किल, धर्मात् उल्लङ्घनं निहन्ति. निहन्ति इति एकवचनम् एव, हन् धातोः हन्तिनि उपसर्गपूर्वं हन् धातुः, निहन्ति इति प्रथमपुरुषः एकवचनं, सः निहन्ति इति सम्बन्धः, निवारयति इति अर्थः. निहन्ति नाम धर्मात् विचलितः न भवति, तत् सः निवारयति इति. गुरुपदिष्ठेन मार्गेण दण्डं विदधाति, एतादृशेन दण्डविधानेन सः अधर्म आचरणं निवारयति, धर्मविप्लवं सः निवारयति. कस्मिन् सः एतादृशदण्डप्रयोगं करोति इति चेत् रिपौ वा सुते वा, रिपौ सुते वा, स्वपुत्रः चेदपि तस्मिन्नपि समानदण्डविधानं, रिपुः शत्रुः अस्ति चेदपि तस्मिन् शत्रौ अपि समानदण्डविधानम् इति कृत्वा सः धर्मविप्लवं निहन्ति, अधर्म आचरणं सः निवारयति, एवं धर्म आचरणं करोति. अपराधी सः अस्ति चेत् सः रिपुः वा नो चेत् स्वस्य पुत्रः वा इति अपरिगणय्य तस्मिन् दण्डप्रयोगं करोति, दण्डं विदधाति इति. शत्रोः उपरि महती द्वेषभावना भवेत्, सुते तु महती प्रीतिः भवेत्, तथापि अपराधी इति अस्ति चेत् सः शत्रुः वा भवतु स्वस्य पुत्रः वा भवतु तस्य दण्डविधानं तु समानं भवति इति. गुरूपदिष्टेन मार्गेण नाम शास्त्रोक्तप्रकारेण धर्मशास्त्र अनुसारेण सः दण्डं विधाय स्वस्य अधर्म आचरणात् सः निवारयति, अधर्म आचरणं निवारयति. सः कीदृशः? सः वशी, वशी नाम संयमी इति अर्थः, अथवा षडरिवर्गं यः जितवान् नाम कामक्रोधलोभमोहमधमात्सर्यत् षड् अरीन् यः जितवान् सः अपि वशी इति उच्यते. इन्द्रियनिग्रहं यः कृतवान्, इन्द्रियनिग्रहवान् सः दुर्योधनः. वसूनि वाञ्छन् न, ऐश्वर्यसम्पादनार्थं न, मन्युना न, मन्युः इत्युक्ते कोपः इति अर्थः, कोपेनापि न. स्वधर्मः इति एव, एषः मम धर्मः, एषः धर्मः शास्त्रोक्तः धर्मः इति स्वीकृत्य दण्डं विदधाति स्म. एवं कोपं कोपकारणेन न, उत्कोचलोभेन अपि न इति निवृत्तकारणः नाम, निवृत्तकारणः नाम तस्य लोभादिकारणं किमपि नास्ति, किन्तु एषः मम धर्मः स्वधर्मः इति कृत्वा गुरुणा उपदिष्टेन मार्गेण सः रिपौ वा सुते अपि, शत्रुः वा भवतु तस्मिन् सुते अपि इति, अपि इति प्रयोगः तत्र करणीयः. सुते अपि धर्मविप्लवं निहन्ति, धर्मव्यतिक्रामं निवारयति. धर्मस्य उल्लङ्घनं सः सर्वेषु अपि निवारयति, सर्वत्र निवारयति सः. समानविधदण्डप्रयोगेन, पुत्रे वा शत्रौ वा भवतु, समानदण्डप्रयोगेन सः धर्मविप्लवं सः निवारयति इति. अस्मिन् श्लोके काव्यलिङ्ग अलङ्कारः दृश्यते. काव्यलिङ्गं नाम समर्थनीयस्य समर्थनं काव्यलिङ्गं भवति. सः सुते अपि कथं धर्मविप्लवं निहन्ति, धर्मव्यतिक्रामं कथं सः सुते अपि निवारयति इति चेत् सः वशी अस्ति इति कारणम् अत्र, वशी इति पदस्य प्रयोगेन कारणम् उच्यते. इन्द्रियनिग्रहवान् अस्ति सः, अतः सः पुत्रे अपि दण्डं विधातुं शक्यः आसीत् दुर्योधनः, अतः वशी इति कारणमुक्तत्वात् अत्र काव्यलिङ्ग अलङ्कारः. स्वधर्मः इति पदमपि अत्र हेतुभूतत्वेन प्रयुज्यते. धर्मविप्लवं निहन्ति इति पदस्य हेतुत्वेन स्वधर्मः इति पदमपि प्रयुज्यते इति समर्थनीयस्य अर्थस्य समर्थनं काव्यलिङ्गालङ्कारः भवति. वशी सः दुर्योधनः, वशी नाम संयमी, इन्द्रियनिग्रहवान् सः दुर्योधनः. वसूनि वाञ्छन् न, उत्कोच लाभं प्राप्तुं न मन्युनापि न कोपेन न निवृत्तकारणः नाम लोभ कोप इत्यादि कारणात् निवृत्तः सन् शान्तः सन् अविद्यमानकोपकारणः अविद्यमानलोभकारणः सः स्वधर्मः इति एव मनसि निधाय एषः मम धर्मः शास्त्रोपदिष्टः धर्मः इति कारणात् एव गुरूपदिष्टेन दण्डेन शास्त्रोक्तप्रकारेण दण्डेन गुरुभिः उपदिष्टेन दण्डेन रिपौ वा सुते अपि शत्रुः चेतपि तस्मिन् पुत्रः अपराधी चेतपि तस्मिन् वा सः धर्मविप्लवं निहन्ति धर्मव्यतिक्रामं सः निवारयति नाम धर्मात् उल्लङ्घनं सः निवारयति उल्लङ्घनं धर्म उल्लङ्घनं सः निवारयति इति चेत् धर्म आचरणं करोति इति अर्थः भावार्थं पठामः धर्मव्यतिक्रमे सति दुर्योधनः शत्रुं वा सुतं वा अपराधिनं प्राग्विवादनिर्णीतशिक्षया दण्डयति नाम गुरुपदिष्टेन मार्गेण सः दण्डयति इति अर्थः तत्र विषये इन्द्रियनिग्रहेण प्रवर्तमानस्य तस्य धनेच्छा वा क्रोधः वा कारणं न भवति तस्मिन् विषये सः कारणं सः इन्द्रियनिग्रहवान् अस्ति अतः तस्य धन इच्छा नास्ति क्रोधः अपि कारणं न भवति सः स्वधर्मः अयं मम सर्वथा सः अयं मम कर्तव्यः इत्येव प्रवर्तते एषः मम कर्तव्यता अस्ति दण्डप्रदानम् इति कृत्वा सः व्यवहारं करोति इति दण्ड दुर्योधनस्य दण्ड उपायमार्गः अस्मिन् श्लोके निरूपितः चतुर्दशं श्लोकं गच्छामः विधाय रक्षान् परितः परेतरान् अशङ्किताकारमुपैति शङ्कितः क्रियापवर्गेष्वनुजीवि सात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः भेद उपायः अनेन श्लोकेन सूच्यते दुर्योधनस्य अयं श्लोकः बहु मुख्यः श्लोकः अस्ति ईआरसी निमित्तं प्रष्टुम् अर्हः श्लोकः भिद्यते अनेन इति भेदः श्लोकस्य पदविभागः विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः क्रियापवर्गेषु अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः अस्य श्लोकस्य अन्वयः एवमस्ति शङ्कितः परितः परेतरान् रक्षान् विधाय अशङ्किताकारम् उपैति क्रियापवर्गेषु अनुजीविसात्कृताः सम्पदः अस्य कृतज्ञतां वदन्ति इति वाक्यद्वयमस्ति डिवैड् एण्ड् रूल् इति वदामः किल तदेव भेदः अथवा भिद्यते परेषां बुद्धिः इति भेदः परेषां बुद्धिः भिद्यते इति भेदः इत्यपि उच्यते नाम अनुकूलक्रियया वा नो चेत् प्रतिकूलक्रियया वा कस्यचित् बुद्धेः भ्रमणं कारयित्वा तद्वारा स्वस्य कार्यस्य साधनं भेदः इति उच्यते अनेन श्लोकेन दुर्योधनः कथं स्वस्य भेदकौशलम् इति प्रदर्शितवान् अस्ति भारवीरः दुर्योधनस्य भेदकौशलप्रदर्शकः श्लोकः अयं श्लोकः अत्र दुर्योधनः किं कृतवान् इत्युक्ते आत्मीयान् जनान् सर्वत्र सेवकजनान् सर्वत्र नियुज्य तेषां तृप्तिं कारयित्वा यथा तेषां मनसि दुर्योधनः एव श्रेष्ठः राजा इति भावः उत्पद्यते तथाविधं तथा कृतवान् सः दुर्योधनः इति उच्यते शङ्कितः सः दुर्योधनः अत्र सः इति पदं नास्ति प्राक्तनश्लोकात् स्वीकुर्मः शङ्कितः दुर्योधनः सर्वदा शङ्का तस्य मनसि वर्तते कमपि
सैनिकं दृष्ट्वा कमपि सेवकजनं दृष्ट्वा कमपि भृत्यं दृष्ट्वा तस्य मनसि सन्देहः सर्वदा भवति, अयं मदीयः सेवकः वा नो चेत् अन्यदीयः वा, शत्रुभूतः शत्रुपक्षे स्थितः सेवकः वा, अयं सैनिकः मदीयः वा नो चेत् अन्यदीयः वा इति सर्वदा तस्य दुर्योधनस्य मनसि एका शङ्का वर्तते, कस्मिंश्चिदपि तस्य विश्वासः न स्यात्। अतः शङ्कितः सः दुर्योधनः किं कृतवान्, पर इतरान् रक्षान् परितः विधाय, परः इत्युक्ते शत्रुः अथवा अन्यः, पर इतरान् इत्युक्ते आत्मीयः इति अर्थः, स्वसम्बन्धी इति अर्थः, स्वस्य सम्बन्धी जनः, पर इतरान् जनान् नाम आत्मीयान् जनान् रक्षान् परितः, आत्मीयान् पर इतरान् रक्षान् परितः विधाय, आत्मीयान् रक्षान् रक्षकान् सैनिकान् सेवकान् परितः सर्वत्र विधाय नियुज्य अशङ्किताकारम् उपैति, अशङ्किताकारं प्राप्नोति, अशङ्कित आकारं शङ्कितः सः स्वस्य जनान् सर्वत्र संस्थाप्य इदानीम् अशङ्कितरूपं प्राप्तवान्, अशङ्कितभावनां प्राप्तवान् नाम शङ्कारहितस्वरूपं सः प्राप्तवान् प्राप्नोति स्म दुर्योधनः। अशङ्कित आकारं प्राप्नोति सः इत्येव उच्यते, केवलम् अशङ्कितः आकारः सः जातः न, यद्यपि मनसि सन्देहः अस्ति तथापि तस्य मनसि सन्देहः अस्ति इति बहिः सः प्रकटयितुं न शक्नोति, अतः तस्य आकारः तस्य स्वरूपः अशङ्कितः अस्ति इदानीम्। तस्य रूपं तु अशङ्कितमिव दृश्यते किन्तु मनसि तु सन्देहः सर्वदा अस्ति एव, तत् शङ्कितः सः आत्मीयान् जनान् आत्मानं परितः नियुज्य अशङ्कित आकारं प्रकटयति स्म, आकारमात्रेण एव अशङ्कितः जातः सः, न तु मनसा अशङ्कितः न जातः इति अर्थः। अत्र वनेजरस्य तीक्ष्णा बुद्धिः ज्ञायते, एतादृशान् सूक्ष्मान् अंशान् दुर्योधनस्य अपि सः ज्ञातुं शक्तवान् इति कारणेन दुर्योधनस्य सामर्थ्य अपेक्षया युधिष्ठिरस्य चारस्य सामर्थ्यस्य उत्कृष्टत्वं ज्ञायते। एवं भारवेः वैशिष्ट्यम् एतदेव, दुर्योधनः तु तावत् समर्थः नास्ति किन्तु चारः तस्मिन् विद्यमाने वा विद्यमानसूक्ष्मान् विषयानपि ज्ञातुं शक्तः आसीत् इति तस्य सामर्थ्यम् अत्र ज्ञायते। क्रिया अपवर्गेषु, क्रियायाः अपवर्गः नाम समाप्तिः इति अर्थः, मोक्षः इत्यपि एकः अर्थः अस्ति अत्र, एण्ड् इति अर्थे। सो क्रियायाः क्रियाणां नाम स्वकार्याणां सम्पादनेषु कार्यस्य समाप्तौ, अनुजीविसात्कृताः सम्पदः अस्य कृतज्ञतां वदन्ति, दुर्योधनस्य कृतज्ञतां वदन्ति सम्पदः, सम्पदः एव अत्र कर्तृपदमस्ति, सम्पदः सम्पत् सम्पदौ सम्पदः इति दकारान्तः स्त्रीलिङ्गशब्दः, प्रथमाविभक्तिः बहुवचनं, सम्पदः अस्य दुर्योधनस्य कृतज्ञतां वदन्ति, कृतज्ञतां कृतं जानाति इति कृतज्ञः कृतज्ञ, तस्य भावः कृतज्ञता इति, सम्पदः अस्य कृतज्ञतां दुर्योधनस्य उपकारज्ञत्वं वदन्ति, सम्पदः किं वदन्ति दुर्योधनस्य कृतज्ञतां प्रकटयन्ति इति। सैनिकाः न वदन्ति अत्र अर्थे, यदा सैनिकद्वारा सेना रक्षकद्वारा स्वस्य कार्यं सम्पादितवान् सः दुर्योधनः तदा किं करोति, तदेव कृतिक्रिया अपवर्गेषु कार्यसमाप्तौ अनुजीविसात्कृताः सम्पदः, कीदृशाः सम्पदः इति पदस्य एकं विशेषणमस्ति अनुजीविसात्कृताः, सेवकानां कृते धनादिकं बहु वस्तु सः ददाति स्म, सत्क्रिया इव दत्ताः, कार्यसफलतायाः परं सः सेवकेभ्यः दत्ताः सम्पदः, दत्तानि वस्तूनि दत्ताः विभूतयः अस्य कृतज्ञतां वदन्ति, दुर्योधनस्य कृतज्ञताभावं सूचयन्ति। ते सैनिकाः स्वयं न वदन्ति अहं कार्यं, मम राज्ञः कार्यम् अहं सम्पादितवान्, अतः मम राजा एतावत् धनं दत्तवान्, एतावत् वसु दत्तवान् इति सैनिकाः स्वयं न वदन्ति, किन्तु तेषां सैनिकानां सम्पदः याः दुर्योधनेन दत्ताः सन्ति ताः सम्पदः एव वदन्ति दुर्योधनस्य कृतज्ञताभावः कीदृशः इति। भावार्थं पठामः। दुर्योधनः सर्वत्र आत्मीयान् चारान् नियुज्य स्वपरराष्ट्रेषु प्रवृत्तान् सर्वान् विषयान् जानाति, तदेव शङ्किता सः परेतरान् रक्षान् विधाय कार्यं सम्पादयति इति। स्वयम् अविश्वस्तः अपि विश्वस्तः इव व्यवहरति, स्वयं तदेव शङ्कितः अपि अशङ्कित आकारं प्राप्नोति इति दृष्टवन्तः श्लोके। स्वयं सः यद्यपि तस्य विश्वासः नास्ति तथापि विश्वासः अस्ति इव सः व्यवहारं करोति, अत एव अशङ्कित आकारम् उपैति। केवलम् आकाररूपेण एव सः अशङ्कितः जातः, न तु मनसा इति। कार्यसमाप्ति अनन्तरं तान् भृत्यान् दानैः सन्तोषयति न वाग्भिः, केवलं वाग्भिः न सन्तोषयति। भवन्तः उत्तमं कार्यं कृतवन्तः, अहं तुष्टः अस्मि, एवमेव सर्वदा कार्यं कुर्वन्तु इत्यादि प्रशस्तिवचनैः सेवकान् न तोषितवान्, दानादि कर्मभिः सः सेवकजनान् तोषितवान्। एवं सः तेषु स्वकृतज्ञत्वं प्रकटयति, सेवकजनेषु स्वस्य कृतज्ञतां सः प्रकटयति दुर्योधनः। पञ्चदशः श्लोकः। अनारतं तेन पदेषु लम्भिता विभज्य सम्यक् विनियोगसत्क्रियाः फलन्त्युपायाः परिबृंहितायती आयतीः उपेत्य सङ्घर्षमिवार्थसम्पदः। फलन्त्युपायाः परिबृंहितायतीः उपेत्य सङ्घर्षमिवार्थसम्पदः। अनारतं तेन पदेषु लम्बिताः विभज्य सम्यक् विनियोगसत्क्रियाः, विनियोगसत्क्रियाः इति एकं पदं, फलन्ति उपायाः परिबृंहित आयतीः उपेत्य सङ्घर्षम् इव अर्थसम्पदः इति श्लोकस्य पदविभागः। तेन दुर्योधनेन लम्भिताः उपायाः, उपायाः नाम पूर्वस्मिन् श्लोके, नाम पूर्वं चतुर्षु श्लोकेषु दृष्टवन्तः सामधान, त्रिषु श्लोकेषु दृष्टवन्तः सामधान भेद दण्ड इति, ये चत्वारः उपायाः दुर्योधनेन लम्भिताः, लम्भिताः नाम प्रयुक्ताः आसन्, ते उपायाः अनावरतं फलन्ति, निरन्तरं तस्य फलप्रदायकाः आसन् सन्ति इति। एवं सः सम्यक् चतुरः उपाया चतुर्णामपि उपायानां प्रयोगं कृतवान्, अतः तस्मात् कारणात् ते उपायाः तस्य फलप्रदाः भवन्ति इति श्लोकस्य सामान्यः अर्थः। तेन पदेषु सम्यक् विभज्य, पदेषु नाम योग्येषु स्थानेषु, यथा योग्यं यत्र साम प्रयोगः करणीयः तत्र दानसहितं समप्रयोगः, यत्र दण्डप्रयोगः दण्डोपायेन कार्यसाधनं तत्र दण्डस्य उपायः दण्डोपायस्य प्रयोगः, यत्र भेदप्रयोगः करणीयं भवति तत्र भेदस्य, एवं यत्र कीदृशेन उपायेन स्वस्य कार्यस्य सिद्धिः स्यात् तादृशेन उपायेन, तदेव पदेषु इति पदेन विवक्षितः अर्थः तदेव। यथा योग्येषु स्थानेषु सम्यक् विभज्य, पदेषु सम्यक् विभज्य, यथा योग्यस्थानेषु, अत्र अर्थः उपादेयवस्तुषु इति अस्ति। उपादेय इत्युक्ते
सेलेक्टेड् अथवा चोसन् इति अर्थः. कुत्र किं करणीयम् इति तत्तत् स्थानेषु सम्यक् विभज्य सम्यक् विभागं कृत्वा कीदृशाः उपायाः लम्बिताः इत्युक्ते विनियोगसत्क्रियाः उपायाः लम्बिताः उपायाः इति उपायाः इति पदस्य विशेषणद्वयं लम्बिताः विनियोगसत्क्रियाः इति. विनियोगः एव सत्क्रियाः. विनियोगः नाम विनियोगसत्क्रियाः. विनियोगः एव सत्क्रियाः सत्कारः इति अर्थः. विनियोगसत्काराः तेन प्रयुक्ताः सत्काराः स्थानेषु प्रयुक्ताः लम्बिताः उपायाः समाधानभेददण्ड इति चत्वारः उपायाः. सङ्घर्षम् उपेत्य इव. सङ्घर्षम् इत्युक्ते स्पर्धमानाः स्पर्धं प्राप्तवन्तः इव. परस्परं स्पर्धमाना स्पर्धां प्राप्य इव परिबृंहित आयतीः. परस्परं स्पर्धां प्राप्ताः इव उपायाः फलन्ति अनावरतं निरन्तरं फलन्ति. किं फलन्ति इत्युक्ते अर्थसम्पदः फलन्ति. अर्थसम्पदः इति पदम् अत्र द्वितीया विभक्ति कर्मपदत्वेन प्रयुक्तमस्ति. द्वितीया विभक्तिः बहुवचनं. धनविभवान् साधयन्ति इति अर्थः. अर्थसम्पदः धनरूप तस्य विभवान् तनोति. कीदृशाः अर्थसम्पदः इत्युक्ते परिबृंहित आयतीः अर्थसम्पदः इति. अर्थसम्पदः इति पदस्य एकं विशेषणम् आयतीः इत्युक्ते इन्क्रीसिङ्ग् इति अर्थः वर्धमानाः इति. परिबृंहित आयतीः इत्युक्ते निरन्तरं शाश्वताः सम्पदः निरन्तरं प्रवर्धमानाः सम्पदः इति अर्थः. प्रचिर उत्तरकालान् चिरकालस्थायी सम्पद् इति अर्थः. चिरकालं यथा तिष्ठन्ति तादृशाः सम्पदः. परिबृंहित आयतीः अर्थसम्पदः. अनारथं फलन्ति निरन्तरं निर्विघ्नं फलन्ति. तेन दुर्योधनेन पदेषु सम्यक् विभज्य उपादेयवस्तुषु पदेषु नाम उपादेयवस्तुषु सम्यक् विभज्य सम्यक् विभागं कृत्वा विनियोगसत्क्रियाः लम्बिताः उपायाः विनियोगसत्काराः सम्यक् स्थानेषु प्रयुक्ताः उपायाः सामदानभेददण्डादयः उपायाः सङ्घर्षणं परस्परस्पर्धां प्राप्ताः इव उपेत्य इव प्राप्ताः इव परिबृंहितायतीः निरन्तरं प्रवर्धमानाः अर्थसम्पदः धनादि विभवान् अनारथं निरन्तरं वदन्ति निरन्तरं प्रसूवते. प्रसूवते इति अस्ति. प्रसूते इत्यस्य बहुवचनं बहुवचनं प्रसूवते इति. अस्य भावार्थं पठामः. सः दुर्योधनः राजकार्येषु सामादीन् उपायान् सम्यक् विभज्य प्रयोजयति. ते उपायाः अहमहमिकया प्रसृताः. अहमहमिकया नाम अहं प्रथमम् अहं प्रथमम् इति निरन्तरं वर्धमानाः क्रम अभिवृद्धिगतान् क्रमेण अभिवृद्धिगतान् धनसमूहान् निरन्तरं तस्य प्रसूवते.